सिद्धान्तकौमुद्याः अग्रन्थः स्त्रीलिङ्गप्रकरणे अष्टमः पाठः पूर्वमासस्य सप्तमः एनाक्षरसमां वाणी ब्रह्ममहेश्वर सत्यं व्याकरणं सत्यं तस्मै पाणिनीये नमः अस्तिकारं वरदिजं भाष्यकारं पतञ्जलिं पाणिनिं शिक्षकारं सत्यं पौष्णिमित्रयं त्रित्रयन्नं सत्यपदिकेत्रिधाज वैयाकरणसिद्धान्तकौमुदीयं विरच्यत. First thing, I was not able to create a presentation today due to various reasons. So today we will be following the actual Siddhanta Kaumudi. If you have your text, you can look into it, or I have a PDF version of the text which you can see on the screen. So we will just go through the text and have the lesson. So maybe after the lesson I can create a presentation and send it if there are any parts which which are a bit modified. Ajanta Sthrilinga, Ikaranta Sthrilinga Samapta. Ikaranta Sthrilinga, Mati Shabda Sadharana Shabda Sacha Prayena Harivata Ikkipta Mishtai Sathate Yatha Harishabdasya Prakriya Tathaiva Mati Shabdasya Prakriya Bhavati Kvachita Visheshaha Drishyate शति नत्वाभावः विशेषः आनि अर्थात् टा प्रत्यये नाभावाभावः अर्थात् नाभावो न भवति इत्यपि विशेषः. दोस्तु अर्थं द्वे इट् कम्प्लीट्लि डिफर्स् फ्रम् हरिशब्द अद प्रक्रिया आप्शन् हरिशब्द वुड् नाट् अप्लै. अदर् देन् दट् नित्सु प्रत्ययेषु परेषु विकल्पेन नदी संज्ञा भवति इति अस्पष्ट इति सूत्रेण नदीसंज्ञायां सत्यां नलितप्रयुक्तानि कार्याणि भवन्ति यथा अण्नद्याः इति एवमेव नेरां नद्यां युद्धः इति कार्याणि भवन्ति. इत्यतः देर् इस् वन् फार्म् विच् इस् डिफरेण्ट् फ्रम् हरि एण्ड् वन् फार्म् विच् इस् लैक् हरि. सो प्रायेण वै प्रायेण हरिवत् दीक्षितर् जस्टिफै देर् आर् ओन्ली टु फार्म्स् वेर् इट् कम्प्लीट्लि डिफरेण्ट् फ्रम् हरि विच् इस् मतीः एण्ड् मत्या वेरस् फार् हरिशब्द इट् वुड् बि हरीन् एण्ड् हरिणा एण्ड् मत्यै मतये मत्याः मतेः मत्यां मतौ इन् दीस् त्री फार्म्स् देर् ईस् वन् फार्म् लैक् हरिशब्द एण्ड् देर् इस् वन् मोर् विच् इस् लैक् गौरीशब्द विच् गोयिङ्ग् टु स्टडि विच् हेस् एन् अधिसाम्यक्. सो दट् इस् द साधारणशब्द मतिशब्दः साधारणशब्दः. ततः त्रिशब्दः द्विशब्दश्च भवति कुत्र विशेषः दृश्यते. द्विशब्दविषये तु यद्यपि शब्दः इकारान्तः तथापि तदादीनामः इत्यनेन अकारादेशो भवति. अकारादेशे कृते अकारान्तत्वात् अगार्गतष्टात् इत्यनेन तापि सति द्वा इति आकारान्तं सम्पद्यते. इवन् दो वि से इट् इस् एन् अकारान्तशब्द इट् बिहेव्स् लैक् आकारान्तशब्द बिकास् इन् आल् विभक्ति वाट् एवर् द प्रत्यय इट् गेट् तदादीनामः एण्ड् देन् इट् गेट्स् अगार्गतष्टात्. सो देर्फोर् इट् बिकम् द्वा. प्रातिपैका इस् द्वा लैक् रम. तस्य यानि रूपाणि द्विवचने द्विशब्दः नित्यं द्विवचनान्तः रमाशब्दस्य यथा द्विवचने रूपाणि प्रक्रियास तथैव द्वा इत्यस्यापि भवति. तेन द्वे द्वे द्वाभ्यां 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 द्वयोः द्वयोः इति रूपाणि. त्रिशब्दस्य तु त्रिचतुरोः स्त्रियां तिसृचतुस्त्रियति रूपेण तिसृ इति आदेशो भवति सर्वासु नित्यं बहुवचनादितः. तिस्रादेशे कृते असिरऋतः इत्यनेन अजादिषु विभक्तिषु रेफादेशो भवति. तेन तिस्रः तिस्रः तिसृभिः पितृभ्यः पितृभ्यः तिसृणां तिसृ आम् इत्युक्ते अस्मान् तत्त्वान् नुति न तिसृ चतसृ इति दीर्घनिषेधात् तिसृणाम् इति रूपं तिसृः इति रूपाणि. तस्यैव त्रिशब्दस्य समासे किं भवति इति चिन्त्यते. यदि समासे वा भवतु तथैव भवतु यदि त्रिशब्दः स्त्रियाम् अस्ति अथवा स्त्रीं द्योतयति तदा तिस्रादेशः भवति. समस्तपदं पुल्लिङ्गे भवतु स्त्रीलिङ्गे भवतु नपुंसके भवतु तस्य चिन्ता नास्ति. समासान्तर्गतः त्रिशब्दः स्त्रीं द्योतयति वा अन्यत् पुरुषं नपुंसकं वाच्यते इति वाचि प्रश्नः. सो क्वश्चन् हियर् इस् ओन्लि अबौट् द कोम्पोनेण्ट् त्री अण्ड् नाट् द एण्टैर् वर्ड् अस् अ सम्वाद. इफ् द कोम्पोनेण्ट् त्री इण्डिकेट्स् स्त्री देन् स्त्री ऐ डोण्ट् मीन् अ वुमन् स्त्रीलिङ्ग फ्याक्टर् वाट् एवर् इट् इस्. सो देन् देर् इस् तिसृ आदेश. इफ् द कोम्पोनेण्ट् त्री does not indicate a feminine object, then there is no tisradesha. This is irrespective of whether the entire word, the compound word, indicates is masculine, feminine or neuter. It does not matter. It, the only thing which matters is what is the linga of the component. Iti ikarantaha pulingaha, idani idantaha, arthaate इकारान्ताः स्त्रीलिङ्गाः आरभ्यन्ते. आदौ गौरीशब्दः इकारान्तस्त्रीलिङ्गः गौरीशब्दः. इन् इकारान्तगेन् देर् आर् डिफ़रेण्ट् कैण्ड्स्. सो द ईकार, हौ इस् द ईकार डिरैव् इस् द क्वश्चन्, इस् द आपरेटिङ्ग् फ्याक्टर् डिरैव्. नौ वन् वे आफ़् डिरैविङ्ग् एन् ईकार इस् स्त्रीप्रत्ययाः सन्ति. स्त्रीप्रत्ययाः नाम ये प्रत्ययाः स्त्रीकद्योतनार्थं योज्यन्ते ते स्त्रीप्रत्ययाः. स्त्रीप्रत्ययः दर् सेट् आफ़् प्रत्ययस् सेट् आफ़् सफिक्सस् विच् आर् आडेड् टु वर्ड्स् टु इण्डिकेट् द फेमिनिटि द स्त्रीत्व. यु स्टडि अबौट् स्त्रीप्रत्ययस् इन् द आफ्टर् इमीडियट्ली आफ्टर् द सुबन्तप्रकरणं. सो यः स्त्रीप्रत्ययः दर् डिफ़्रेण्ट् स्त्रीप्रत्ययस् टाप् डाप् अण्ड् चाप् आर् त्री स्त्रीप्रत्ययस् विच् एण्ड् इन् आ. Which the Pratiparika would end in A if it has any of these pratyas, and they are called Abanta. Similarly, there are three other three pratyas, Neet, Neesh and Neem. So all of them end in Ikara, Dirgha Ikara. Neet Pratyaya Krite, Neesh Krite, Neel Krite Va, Pratiparikam Ikarantam Bhavati, Nyantam Iti Cha Ucchyate. Ete Sarve Shabdaha, Ete Pratyantaha, Nyantaha Iti Ucchyate. सो ण्यन्तः ईकारान्तः एकः. देर् इस् अ ईकार विच् इस् ण्यन्तम् एण्ड् देर् इस् अ देर् कुड् बि ईकार विच् इस् डिरैव्स् फ्रम् सम् अदर् प्रत्यय विच् इस् नाट् नीट् नीष् नी. एतद्विहाय अन्यः ईकाररूपः प्रत्ययः स्यात् उणादिषु भवति. इन् उणादि वि हव् सर्टन् प्रत्यय विच् एण्डिङ्ग् ई, लैक् इफ् यु रिमेम्बर् वातं प्रमिमेत इति वातप्रमिः. In that he said, Aunadikaha E Pratyaya. There would be an E Pratyaya which is not Nyanta. So, Nyanta Shabdaha Bhavitamarashanti. Aunadikaha, that is E Pratyayantaha Bhavitamarashanti. Dhatoha api Ikaraha Bhavitamarashanti. There could be cases where the Ikara belongs to the Dhatu. Like we saw in Pulingate, we saw in Kumari or in many other places. So, depending on where, what is the origin of Ikara, the Prakriya would change. Ikaraha, Kidrishaha, iti vichinte Prakriya bhavati, Prakriya karaniyantara. Adho, Nyantaha sikhuyate. So, the majority of Ikarantas turn out to be Nyantas. So, he takes Nyanta Shabda as the Sadhanana Shabda for Ikarantas. Tatra Gauri, iti Nish Prakriyantaha. गौर इति शब्दात् गौरं नाम श्वेतः इति इत्यस्मात् गौरशब्दात् नीष् इति प्रत्ययः क्रियते गौरी इति रूपं. सो अस्य कथं प्रक्रिया, इट् हेस् अण् यूस् व्याख्यौ नदी ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः. दीर्घ इकारान्तं नित्यस्त्रीलिङ्गञ्च भवति चेत् प्रातिपदिकं तस्य नदी इति संज्ञा भवति. सिन्स् दिस् इस् ईकारान्त नित्यस्त्रीलिङ्ग, इट् विल् हेव् द नदी संज्ञा. नदीसंज्ञानिमित्तानि कार्याणि कानि इति चेत् अम्बार्थनद्योर् ह्रस्वः इत्यनेन सम्बुद्धौ ह्रस्वः भवति. आण्नद्याः इत्यनेन नीताम् आडागमः भवति. ह्रस्वनद्यापो नुट् इत्यनेन आम् षष्ठीबहुवचने नुडागमः. नेरां नद्यां नीभ्यः इत्यनेन सप्तमेकवचने ने प्रत्ययस्य आम् इति आदेशः. एतानि चत्वारि नदीत्वप्रयुक्तानि कार्याणि. आल्रेडि स्टडीड् आल् दिस् सूत्रान् अण्ड् आल्सो स्टडीड् वर्ड्स् वेर् दे विल् अप्लै टु अदर् त्री केटगरीस्. गौरी गौर्यौ गौर्यः. गौरी सुप्रत्यये कृते
फल न्याभ्यो दीर्घा चतुस्य प्रत्यम फल फल मी आप मी इत्युच्यते अयम मीष प्रत्ययान्तः तेन अस्मात् परस्य सुप्रत्ययस्य लोपो भवति गौरी गौरी औ इत्युच्यते इकोयणसि इत्यनेन एणादेशे गौर्यौ अतः प्रथमयोः पूर्वसवर्णः इत्यस्य प्रवृत्तिः कुतो न वै विल् प्रथमयोः पूर्वसवर्णः नाट् अप्लै हियर् हेवन् मतिः मती मती औ इत्यस्यते पूर्वसवर्णे कृते मती इति जातं किमर्थम् अत्र पूर्वसवर्णदीर्घस्य प्रवृत्तिः नास्ति दीर्घात् जसि च इति पूर्वसवर्णदीर्घनिषेधः दीर्घात् जसि इचि च परे जस् प्रत्यये परे इच् वर्णे च परे पूर्वसवर्णदीर्घो न भवति इति निषेधः तेन पूर्वसवर्णदीर्घो न भवति गौरी गौर्यौ एवमेव गौर्यः गौरी अस् इति स्थिते पूर्वसवर्णदीर्घनिषेधे इकोयणसि इति यण् गौर्यस् ऋत्वं विसर्गः गौर्यः नदीकार्यं हे गौरी गौरी हे गौरी इति स्थिते अम्बार्थनद्योः ह्रस्वः सम्बुद्धौ परतः अम्बार्थानां नद्यन्तानां च ह्रस्वो भवति इत्यनेन ह्रस्वे हे गौरी हे गौर्यौ हे गौर्यः गौरी अम् अमिपूर्वः इत्यनेन पूर्वरूपे गौरीं गौर्यौ गौरीः गौरी शस् शतः पूर्वसवर्णदीर्घनिषेधः नास्ति देर् इस् नो निषेध इन् शस् सो यु हेव् टु डु प्रथमयोः पूर्वसवर्णः गौरीस् इति भवति ऋत्वविसर्गयोः कृतयोः गौरीः गौर्या गौरीभ्यां गौरीभिः गौर्यै गौरी ण्ये इत्युच्यते पुनः नदीकार्यम् आण्नद्याः इति आट् आगमः गौरी आ ए इति भवति आटिकृते आटश्च इति पूर्वरूपे आटश्च इति वृद्धौ गौरी ऐ यणिकृते गौर्यै गौर्यै गौरीभ्यां गौरीभ्यः गौर्याः तत्रापि आडागमः वृद्धिः यणादेशः गौर्याः गौरीभ्यां गौरीभ्यः गौर्याः गौर्योः गौरी ओस् यणादेशः ऋत्वविसर्गौ गौर्योः गौरीणां गौरी आम् इत्युक्ते नद्यन्तत्वात् ह्रस्वनद्यापो नुट् इत्यनेन नुडागमः गौरी नु आम् अनन्तरं णत्वं भवति गौरीणां नट्कुत्वाङ्गं विवाहयति इत्यनेन णत्वम् अनन्तरं नि सप्तम्येकवचने नि प्रत्ययः गौरी इ इत्यस्ति ङेः ङेरां नद्यां नीभ्यः इत्यनेन आम् इति आदेशः सो यः गौरी आम् आण्नद्याः इति आडागमः सवर्णदीर्घः गौरी आम् यणादेशे कृते गौर्यां गौर्योः गौरीषु आदेशप्रत्यययोः इति शब्दः ऐ होप् दिस् इस् नाट् ऐ मीन् ऐ अण्डर्स्टाण्ड् ऐ एम् सेयिङ्ग् इट् गोस् मच् फास्टर् देन् इफ् इट् वुड् बी इन् अ प्रेसेण्टेशन् बट् ऐ एम् अस्यूमिङ्ग् दट् दिस् प्रक्रिया इस् प्रिटि फेमिलियर् बिकास् वी आलरेडी स्टडीड् इन् अजन्तपुल्लिङ्ग अण्ड् आल्सो जस्ट् नौ इन् मतिशब्द वि सो वाट् वर् द नदी कार्य एनिवेर् ऐ एम् फास्ट् प्लीस् टाक् मी अण्ड् लिसन् आस्क् मी अगेन् because whenever I'm just speaking, it always tends to go faster than if it is a presentation. So anytime you can stop me and ask me to repeat, or if you have any questions, you can ask. So Gauri Shabdaha Nadi Karyani Samaptam Evam Vani Madhyadayaha Vani Nadi Madhyadayaha Sarvepi Nyantaha. So wherever the Ikara is from Neet Neesh or Neen, द प्रक्रिया इस् सिमिलर् इदानीं सखी शब्दः अस्ति स सख शब्दा निष्पद्य सखी शब्द सो सखी शब्द यू हैव इट कमिंग फ्रॉम सखी द इकारांत पुलिंग सखी शब्द तस्मात् सख्यशिश्वीति भाषायां इति सूत्रेण नीष्प्रत्ययः क्रियते अगेन इट इज नीश सखी इ इत्युक्ते सखी इति इकारांत स्त्रीलिंग नाउ इफ यू रिमेंबर द सखी शब्द ऑफ पुल्लिंग द प्रक्रिया देयर आर सर्टन सूत्र विच आर देयर स्पेसिफिकली फॉर सखी शब्द वन वाज अनंग सौ सुप्रत्यये परे अनंग आदेशः भवति अतः एव सखन् इत्युक्ते उपधादीर्घे सखान् सुलोपे न लोपे सखा इति प्रथमैकवचने रूपं सो अनंग सौ इज अ सूत्र विच वाज स्पेसिफिक फॉर सखी शब्द इट्स ए फॉर सखी शब्द एंड फॉलोड बाय सुप्रत्यय देयर इज अनंग आदेश एंड ऑल्सो सख्युः असंबुद्धौ असंबुद्धौ सर्वनामस्थाने परे सखी शब्द पुरम असंबुद्धि समुद्धिवर्जन सर्वनाम स्थान निद्वत् क्या निद्वत् भाव अर्थात द प्रत्यया विच इज फॉलोइंग सखी शब्द विल बिहेव लाइक निद इफ इट इज निद द प्रातिपदिक विल गेट वृद्धि वै अचोयनिति सखी औ इति स्थिते निद्वत् भावे कृते अचोयनिति इत्यनेन वृद्धौ सखै औ वृद्धिरेचि इत्यनेन वृद्धौ सखायौ इति रूपम् सो दट् इस् हौ वि डेल्ट् वित् सखि शब्द वन् इस् अनङ् सौ सुप्रत्यये परे अनङ् आदेशः द्वितीयं सख्युरसंबुद्धौ इत्यनेन निद्वद्भावः सो दीस् टु वेर् कार्यर्स् विच् वर् स्पेसिफिकलि टोल्ड् फार् सखि शब्द विल् दीस् अप्लै फार् सखी इकारान्तस्त्रीलिङ्गे सखी शब्देपि भवति वा इति प्रश्नः सो हौ केन् इट् अकर् ऐ मीन् वाट् इस् द लाजिक् इन् सेयिङ्ग् दट् द कार्य फार् सखी शुड् आल्सो अप्लै फार् सखी इस् प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं सो इति परिभाषा विद्यते प्रातिपदिकग्रहणे यत्र प्रातिपदिकस्य ग्रहणमस्ति तत्र लिङ्गविशिष्टस्यापि अर्थात् लिङ्गबोधकप्रत्यययुक्तस्यापि ग्रहणं भवति सो इफ् सर्व हेज़् सर्वनामसंज्ञा इन् सर्वादीनि सर्वनामानि द इफ् यु एड् टाप् टु इट् एण्ड् डु सर्वा स्त्रीलिङ्गस्यापि सर्वनामत्वं भवति कथं भवति प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं सो नौ द सेम् थिङ्ग् इफ् इट् अप्लैस् हियर् वाट् एवर् अप्लैस् फार् सखी शब्द शुड् आल्सो अप्लै फार् सखी इस् द लाजिक् सो हि सेस् प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् अनं निद्वद्भावे प्राप्ते अनङि निद्वद्भावे च प्राप्ते सैफो इन्स् अनङि निद्वद्भावे च प्राप्ते प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् अनङि निद्वद्भावे च प्राप्ते सौ अनङ्सौ इत्यनेन अनङ् आदेशे प्राप्ते सख्यरसंबुद्धौ इत्यनेन निद्वद्भावे प्राप्ते विभक्तौ लिङ्गविशिष्ट अग्रहणम् इति वार्तिकं विभक्तौ अर्थात् स्वादिप्रत्ययेषु परेषु अथवा तिङादि तिवादिप्रत्ययेषु परेषु यत् कार्यमुच्यते इफ् देर् इस् एनी कार्य विच् इस् मेण्डेटेड् वेन् फालोड् बै विभक्तिप्रत्यय देन् लिङ्गविशिष्ट अग्रहणं देर् इस् नो ग्रहण आफ् लिङ्गविशिष्ट देर् इस् नो ग्रहण आफ् दि स्त्रीलिङ्ग पार्ट् नौ सख्युरसंबुद्धौ एण्ड् अनङ्क्तौ आल् डिपेण्ड् आन् द विभक्तिप्रत्यय इट् डिपेण्ड् आन् अ कार्य विच् इस् मेण्डेटेड् टेकिङ्ग् सुप्रत्यय आर् सर्वनामस्थानप्रत्यय सो विभक्तौ लिङ्गविशिष्टस्य ग्रहणं नास्ति सो इन् दिस् केस् द सखी शब्द वुड् नाट् बि कन्सिडर्ड् वित् सखी शब्द सो बिकास् आफ् दट् अनङ् आर् निद्वन्द्वः विल् नाट् हेपन् सखी सख्यौ सख्यः इत्यादि गौरीवत् रूपाणि द फार्म्स् आर् लैक् गौरी सख्यः इत्यादि गौरीवत् सो द फार्म्स् आर् एक्साक्ट्लि लैक् गौरी एण्ड् देर् इस् नो चेञ्ज् एनी क्वश्चन्स्
लिङ्गविशिष्ट उपग्रहणपरिभाषा जस्ट् एस् ऐ टोल्ड् यु इफ् इट् इस् सर्व अण्ड् सर्व इफ् इट् इस् सर्वनाम संज्ञा इट् डस् नाट् डिपेण्ड् अन् विभक्ति लैक् सर्वादीनि सर्वनामानि इट् डस् नाट् डिपेण्ड् अन् विभक्ति प्रत्यय सो इट् वुड् हेपन् सो सर्व वुड् आल्सो गेट् सर्वनाम संज्ञा सो इफ् देर् आर् इफ् देर् इस् अ प्रत्यय बीङ्ग् टोल्ड् इट् मैट् हेपन् और् इफ् देर् इस् अ समास इट् मैट् हेपन् देर् आर् केसेस् वेर् इफ् इट् इस् विभक्ति देर् इस् नो लिङ्गविशिष्टग्रहणम् सख्यसख्यः इत्यादि गौरीवत् नेक्स्ट् अन्यन्तत्वात् न सुलोपः लक्ष्मीः एक्चुलि द मेजर् पार्ट् आफ़् द पायिण्ट् टु बि नोटेड् हियर् इस् द विसर्ग अण्ड् द विसर्ग इस् नाट् सीन् इन् द डाक्युमेण्ट् बट् द फार्म् इस् एक्चुलि लक्ष्मीः वै अन्यन्तत्वात् न सुलोपः बिकास् इट् इस् नाट् अन्यन्त देर् इस् नो सुलोप So what is it? You can look into the commentary since this file also has Bala Manorama. So you see, the first line says here, Lakshir Mutcha iti Lakshadhatohu ee prathaye mudagame Lakshmi Shabdaha. Okay? So how are we getting Lakshmi? Lakshehe Mutcha iti Lakshadhatohu ee prathaya. Lakshir iti dhatohu tasmat ee prathaya kriyate am onadikah prathaya. Lakshir ee iti sti. मुडागमे मुत् इति आगमः क्रियते लक्ष् मु इ लक्ष्मी इति शब्दः ओके सो हियर् अङ्यन्तत्वात् सिन्स् दिस् इस् नाट् अङ्यन्त हल्ण्याभ्यो दीर्घात् इत्यस्य पत्रं हल् इति सूत्रेण सुलोपो न भवति यु के नाट् अप्लै हल्ण्याभ्यो अण्ड् हेन्स् दिस् इस् नो सुलोप इट् इस् लैक् लक्ष्मीः विसर्ग इस् हर्ड् लक्ष्मीः लक्ष्म्यौ लक्ष्म्यः शेषं गौरीवत् all other rupas will be like Gauri because even if it is not Yanta, it has Nadi Samya. Dirghaikarantatvesati, Strilingatvesati, Nadi Samya to Bhavatyeva. You cannot prevent Nadi Samya. You are just preventing Sulopa. There is only one karya which depends on it directly being in Yanta. This is Halnyabhya Dirghasatishtakam Halil and that will not happen. Therefore it is Lakshmihi, Lakshmiyo Lakshmiha. हे लक्ष्मी हे लक्ष्म्यौ हे लक्ष्मः इत्यादि सर्वाणि रूपाणि गौरीवत् एकमेव प्रथमाविभक्तौ एकवचने रूपं तु विसर्गसहितं भवति लक्ष्मीः एवं तरी तन्त्र्यादयः तरीः तन्त्रीः सो आल् दीस् वर्ड्स् आर् अगेन् नाट् अज्ञन्त सो इफ् द वर्ड् इस् नाट् अज्ञन्त देर् इस् नो सुलोप सो यः तरीः तर्यौ तर्यः तन्त्रीः तन्त्र्यौ तन्त्र्यः इत्यादीनि रूपाणि नेक्स्ट् स्त्री शब्दः स्त्री इति शब्दः ईकारान्तः स्त्रीलिङ्गः स्त्री शब्दः ओके रविचन्द्रजी टु क्वश्चन् विच् इस् रिलेटेड् टु बालमनोरमा if you look at the Bala Manorama for Lakshmi, there is Lakshair Mushtayat Lakshadhatu Vaitrathe Mudagame Lakshmi Shabdaha Tasya Visheshamaha Anyan Tatvat Nasulopa Kridikara Dakshinaha Iti Nishito Sulopo Havasyeva There is a sutra in Sri Pratyaya which says Krut Ikarat If there is an Ikara of Krut Pratyaya then there is Nish which can be added to it Say for example, if you have Ratrihi, Ratri is the word where the Ikara is from Samkrit Pratyaya and Unadi Pratyaya other than Ratri. So you can add Nish to it and it becomes Ratri, Dirgha Ikara. So Ratrihi is kepe asti, Ratri is kepe asti. So similarly, he says for this Lakshmi, the Ikara is from a Pratyaya. Unadi Pratyayas are all Krit Pratyayas. So Krit Ikara, for an Ikara, whether Haswar Dirgha of a Krit, there is Nish which can be added. So after you get Lakshmi, you can again add Nish to it and do Savarna Dirgha, so it again becomes Lakshmi. Now the word is Lakshmi, but it is a Nyanta. Nish Pratyaya Kute Nyanta Bhavati. Yadi Nyanto Bhavati, Tadatu Halnyabhyo Dirgha Sutishtha Pratyam Hal Ityanena Sulopo Bhavati. Sadhikara Dakshinaha Iti Nishitu Sulopo Bhavatyeva. Ataha Lakshmi Ityapi Rupam Sadhu Iti Vadati. But the commonly used thing is Lakshmihi. where the visarga is heard. Next, stri shabda. So if you want the prakriya, it is all here. But it is a neep pratyanta. It is nyanta. Stri is derived from stiyai, shabda sanghata yoho dhatu. And it has a direct pratyaya and all that. But finally, it is nibanta, which means it is a nyanta. Stri shabda nyanta. Ataha halgyam pyaha iti silopo bhavati. Stri su iti sute silope stri iti rupam. Ikarantatvata strilingatvata. Nitya strilingatvata nadhitva prayuktani karyanya iti bhavati. Tena he stri su iti sute ambartha nadyo hrasvaha. Ittyanena hrasve he stri. स्त्री औ गौरी औ गौर्यौ कृतम अथवा निकोणसी यणादेश स्त्री औ स्थित यणादेशे प्राप्ते नूतन सूत्र उच्यते स्त्रिया सूत्र अचिष्ण धातु भुवां युवो इयंग उमंग अचि अनुवर्तते इयंग अनुवर्तते सः अर्थः स्त्रियाः नाम स्त्री शब्दस्य यंग स्यात् यंग इत्यादेशो भवति अजादो प्रत्यये परे व्हेन फॉलोड बाय एन अजादि प्रत्यय त्री विल गेट यंग आदेश एंड दिस विल ओवररूल यंग परत्वात् इको यणसि इति यणं बाधते सो तेन त्री औ इति स्थिते यणं बाधित्वा अनेन यंग आदेशे कृते त्री औ त्रियौ त्री अस् स्त्रियस् ऋत्वे विसर्गे स्त्रियः The stri, striyau, striyaha. The one difference between stri and gauri is this. Gauri will get ikoyanasi everywhere. Ajadishu pratyayeshu ikoyanasi ityanena yanadesho bhavati. Stri shabdasya tu striyaha ityanena yanadesho bhavati. Stri, striyau, striyaha. He stri, he striyau, he striyaha. So the very next sutra after striyam is वा अंशसोः दिस इज 6479 एंड दिस इज 6480 सो स्त्रियाः इति अनुवर्तते इयं इत्यपि अनुवर्तते द मीनिंग शुड बी वेरी क्लियर अंशसोः अमि शसि च परे दिस इज व्हेन फॉलोड बाय अम एंड शस वा इयं वा इयं आदेशः विकल्पेन भवति सो अमि शसि च स्त्रियाः इयं वा स्यात् There is an optional iyanadesha for stri shabda. Tena kim bhavati? Stri am ityasti. Iyanadesha pakshe striyam iti rupam. Tadabhave stri am ityasthate. Ami purvaha ityanena purva rupetvate. Strim ityapi rupam. So there are two forms. When we do iyanadesha, it would be striyam. And when there is no iyanadesha, it would be strim. So striyam स्त्रीं स्त्रियौ कामन् अगेन् स्त्रियः स्त्रीः शस् प्रत्यये कृते स्त्री अस् इत्यस्ति इयादेशपक्षे स्त्रियस् ऋत्वे विसर्गे स्त्रियस्त्रियः तदभावे स्त्री अस् स्थिते प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घः स्त्रीस् इति भवति अस्यैव ऋत्वे विसर्गे स्त्रीः स्त्रियं स्त्रीं स्त्रियौ स्त्रियः स्त्रीः देर् आर् टू फार्म् इन् अम् एण्ड् शस् बिकास् वां शसोः सेस् देर् इस् एन् आप्शनल् इयम् आदेश आफ्टर् दट् वेर् वेर् देर् इस् एन् अजादि प्रत्यय अगेन् यु हेव् इयं वै स्त्रियाः सो स्त्री आ स्त्रिया स्त्रीभ्यां स्त्रीभिः स्त्री ए सो द नदीत्वप्रयुक्तकार्यं तु भवत्येव स्त्री ए इति स्थिते आण्नद्याः इति आडागमः आटश्चेति वृद्धिः सो यु हेव् स्त्री ऐ इयङादेशे कृते स्त्रियै सो ओन्ली डिफ्रेन्स् बिट्वीन् स्त्री एण्ड् गौरी इस् द इयङादेश एण्ड् कम्पल्सरि इयङादेश इन् अजादि प्रत्यय एण्ड् आप्शनल् इयङादेश इन् अम् एण्ड् शस् दट् इस् द ओन्ली डिफ्रेन्स् बिट्वीन् गौरी एण्ड् स्त्री सो हि सेस् स्त्रिया स्त्रियै चतुर्थीकवचने स्त्रियै स्त्रियाः देर् शुड् बि विसर्ग हियर् स्त्रियाः स्त्रियाः पञ्चमी षष्ठी एकवचने स्त्रियाः स्त्रियोः स्त्री ओस् इयादेशे स्त्रियोः स्त्री आम् इत्युक्ते should we do yang adesha or should we do nudagama? That's the question. So paratva smita nudagamaha saptamadhyaye vihitaha. So nudagama has been told in the 7th chapter, whereas yang adesha is in the 6480. So paratvat nut, so it has three am, nudagame three nam, anatve three nam, three nam, three am. So saptame ka vachane three e, kasi neram nadyam nitaha iti am adesha, three am, am adesha krute punaha an nadyaha atascha. So again you end up with three am, yang adesha krute three am, three oho, three shu. त्रिशु इसके आदेश प्रत्यय योहु इसके नए शब्द में त्रिशु इसी रूप ओके सी एस ओफा एनी क्वेश्चन Now he goes on to see what happens if three shabda is in a samasa. Samase yang adeshah bhavati va nava. Kasmin samase bhavati, kasmin na bhavati. So when it is a samasa, there are three options. Samasa, I mean it is a samasa and it is an upasarjana. Okay? So generally, I mean samasa can be two types. There is a pradhana where the word in the samasa is itself pradhana. And the one where it is upasarjana. All complications arise when it is an upasarjana. When it is pradhana, generally there are no questions. The same thing which happens to the independent word will also apply for samasa if it is pradhana. But only when it becomes gauna is a question would arise. Will this karya happen? Will this not happen? Etc. Okay. So now upasarjana, he takes a samasa, striyam atikrantaha, he who has gone beyond women. Or this is excelled women, etc. You know, this can be in all three lingas. Striyamatikrantaha, Striyamatikranta, Striyamatikrantam. So it can be in three lingas. In all three lingas, the word is ati ityanena, stri ityasya samasaha, ati stri ityasti, gostri or upasarjanasya ityanena rasve, ati stri iti ikarantam pratiparikam. The pratiparika will become ikaranta everywhere. Atistri iti bhavati. Idanim rupam kim katham bhavati atistri shabdasya iti prashnaha. Yes, triyam atikrantaha atistrihi. Right? So, you have atistri and you do so. You cannot apply halgyabhyo dirgha sitisya pratam hale. Why? Why should we not apply halgyabhyo dirgha sitisya pratam hale here? Even though this is nyanta, that is sthanivadbhavena nyantatvam asti, tathapi hrasvaha asti. Hal nyabhaha dirghat iti uchyate, ayam dirghaha nasti, ataha sulopo na bhavati atistrihi iti rupam. Atistrihi, atistri au, ite striyaha, this is still stri shabda, therefore iyang will apply, so you have atistriyau, no question so far. Now, when you have atistri, atistri as, what will happen in Hari as? You have Hrasasya Gunaha Ityanena Gune Hare as Ayadeshe Harayaha Iti Bhavati. So should we do Guna, that is, should we do the teacher or should we do Striyaha is the question. So there is a Karika which says Guna Nabhava Autva Nudhihi Paratvat Pumsi Madhyate Slibe Numaja Stri Shabdasya Yang Iti Avadharyatam Gunanabhava Utva Nudhvih Paratvat Pumsi Madhyate Slibe Numaja Stri Shabdasya Yang Iti Avadharyatam. What does he say? Pumsi Pullinge, as I told, Stri Shabdasya Yang. The Stri Shabda can be in all three lingas. When it is Samasa and is an Upasarjana, it can be either pullinga, strilinga or napumsaka. This pumsi, pullinge, paratvata, etaihi karyaihi, स्त्री शब्दस्य यंग माध्यते यंग फॉर स्त्री शब्द इज ओवररूल्ड बाय दीज थिंग्स इन पुल्लिंग व्हाट आर दोस गुण नाभाव औत्व एंड लुट दीज आर द फोर थिंग्स विच विल ओवररूल यंग इन पुल्लिंग गुण इज दिस जसीच इति गुणः ह्रस्वस्य गुणः इत्यपि गुणः Right, so you have guna in just by dasicha and in sambuddhi by hrasvasya gunaha. So both these are guna. So first he says, jasicha atistrayaha. Atistri as. Istate, jasicha ityanena gune atistre as. Ayadeshe atistrayas. Ritva visargayohu atistrayaha. So jasicha will overrule striyaha iti yam. Vai paratvat. Jasicha, the number is seven three one not nine. Okay, and Sriyaha is 6-4. It is in fourth quarter of sixth chapter. So Paratvat, Jasicha, Sambuddha, Rasvasya Gunaha. Both of them are in seventh chapter. So Paratvat, Gunena, Bhavate. Okay, this word is Pullinga. There is a basic question. Are we dealing with Pullinga or Strilinga? We are dealing with Pullinga form of Atistri. Striyam Atikrantaha Atistrihi. It is Pullinga Shabdaha. Okay. It refers to a man who has gone beyond or who has excelled women. That is what the Artha from the Vigraha would be. So this is Pullinga. Please remember, this is a Pullinga form. So Atistrihi, Atistriyau, Atistrayaha. अतिस्त्रि अस् इति स्थिते इयमं बाधित्वा गुणे अयादेशे अतिस्त्रयः हे अतिस्त्रे अत्रापि ह्रस्वस्य गुणः इत्यनेन गुणः हे अतिस्त्रे हे अतिस्त्रियौ हे अतिस्त्रयः व्हेन यू कम टू अम वा अंशसोः विल अप्लाई जस्ट लाइक इन स्त्री शब्द द इयं वाज ऑप्शनल इन दिस आल्सो इयं इज ऑप्शनल सो व्हेन We have iyam, it becomes atistriyam. Otherwise, it becomes atistrim. Remember, the word is harasva. Atistri iti harasvaikaranta shabdaha. So, it is atistrim, atistriyam, atistriyau, atistriyaha, atistreen. Like you have harin, you have atistreen. It is iyam adesha, it is atistriyaha. Otherwise, prathmayopuro savarnaha, tasmachasona humsi, pullingatvati natvam bhavati atistreen. So, atistriyam, atistrim, atistriyau, atistriyaha, atistreen. Next, atistrina. The second one here in the karika list is guna nabhava. Nabhavaha nama angvanastriyam. Ittanena na. We have atistri a ittisti. Iyam karaniyova angvanastriyam. Ittanena nabhava karaniyova. Iti prashne sati. Punaha paratvat nabhavaha ittichate. Angvanastriyam is 73120 and so it is again parasutra so nabhava would apply and you have atistri na attupangam eva yeti ittanena natve atistrina atistrina atistribhyam atistribhihi gherniti is another guna right gherniti hari e ittisthite gherniti ittanena gune hare e Haraye. Similarly here you have Atistraye. So by this guna in this karika, three sutras are indicated. One is Jasicha, one is Rasvasya Gunaha, which gives guna in Sambuddhau. The other is Gherniti. Gherniti iti gunaha. All of them are in the seventh chapter. Therefore they all overrule Iyam. And Nabhava, Angvanastriyam iti Nabhavena api Iyam Badhyate. So we have gherniti iti gune, atistraye, atistrehe, atistrehe. So what is the difference between atistri and hari is what you have to see. Since this is an ikaranta pullinga, the sadharan shabda is hari. You should always compare it to hari shabda. Okay. So what is the difference between atistri and hari is in au you have iyang, in am and shas you have an optional iyang. In all other forms so far it has been like hari shabda. So, guna, nabhava, autva, atistriyau. This is atistrehe, atistriyoho. This is os, atistriyoho, atistrinam. Nuragama, rasvanadhyapo nut. Iti nuragamena api iyang badhyate. अतिस्त्री आम इति स्थिते ह्रस्वान्तत्वात् नुट् अतिस्त्री नाम नामेति दीर्घः अतिस्त्री नाम नत्वं अतिस्त्रीणाम् इन सप्तमी हरि औ इति स्थिते अच्छेः इत्यनेन इकारस्य औकारादेशः प्रातिपदिकस्य अकारादेशः सो इट बिकम्स हर औ हरौ सो सिमिलरली इट इज अतिस्त्री ई इट बिकम्स अतिस्त्र औ वृद्धौ अतिस्त्रौ यथा हरौ तथा अतिस्त्रौ अतिस्त्रियोः अतिस्त्रिषु सो व्हाट इज द कंक्लूशन अगेन ही सेज ओसी औकारे च नित्यं स्यात् अंशसोस्तु विभाषया यादेशोचि नान्यत्र स्त्रियाः पुंसि उपसर्जने स्त्रियाः नाम स्त्री शब्दस्य उपसर्जने पुंसि व्हेन इट इज उपसर्जना एंड पुल्लिंग व्हाट विल हैपन यादेशः नाम इयं आदेशः ओसि ओकारे च नित्यं स्यात् इन ओस दैट इज अतिस्त्रियोः अतिस्त्रियोः एंड औकार which is au, su au just amorchas. So in aus, au and os, nityam yadesho bhavati. There is a compulsory yang adesha. Am shasostu vibhashaya. For am and shas, there is an optional yang adesha. So you have atistriyam, atistrim. Again you have atistriyaha, atistrihi. So yadeshaha achi na anyatra. Everywhere else there is no yadesha. It is overruled by some other karya like guna, nabhava, etc. So the difference between hari and atistri in pullinga is again in only these. In os and oka, aukara. That is in prathama, dvitiya, dvivachana, shashti, saptami, dvivachane, bhedaha. Hari will get yanadesha, atistri will get yanadesha. This one difference. In am and shas, hari has only one form. Whereas Atistri will have two forms, one with Yang Adesha and the other like Hari. So all other forms of Atistri will be like Hari Shabda. Striyam Atikrantaha Atistrihi Hari Shabdavat except in these. Is that okay? Any questions? So if Stri Shabda is Upasarjana and Pullinga, it follows Hari Shabda, excepting Iyang in four places. Os, Au, Am and Shas. Am and Shas is optional, Os and Au is compulsory. Okay. So that is Atistri in Pullinga. What will happen in Napumsakalinga? Striyam Atikrantam Atistri. This is the check. If you go back to the original Vartika. Okay. Is there a question? Unto Lakshmi. Yes, it is treen. Like hareen. You have prathamayok purva savarnaha. Tasmat chasona pumsi. It is treen. Okay. So, napumsa kalinge kim bhavati? So, if you look at the tharika, guna nabhava autva nudhihi. Guna jasicha tasvasya gunaha gherniti iti gunaha. Nabhavaha angona striyam iti nabhavaha. Autvam achaghehe iti autvam. Nutta rasvanadhyapo nutta. Etaihi paratvatu pumsi badhyate. Klibe numacha stri shabdasya iyam. Klibe nama napumsakalinge numagavaha. I was telling you yesterday, in Napumsakalinga, we have not dealt with Napumsakalinga Prakriya yet, but in Napumsakalinga, Ikochi Vibhaktau, when followed by an Ajadi Vibhakti, there is Num Agama. So that is why you have Dadhini, Dadhini, Dadhna, Dadhne, everywhere you hear the Nakara, Varina, Varine, So the nakara is because of num agama. So he says, by num, the yang is overruled. So kim bhavati? Yang adesho na bhavati, num agama bhavati. Katham, rupani katham bhavanti. So we have klibe to num. First, atistri su ityasti. Again, this is a hraswa ikaranta. Ikaranta ha, napumsakalinga ha, atistri shabda ha. So this is a napumsakalinga and the word is atistri. Atistri su ityastite, swamor napumsakat ityanena, su am etayohu lopo bhavati. So they are deleted, so it is atistri is the prathamaika vachana, dvitiyaika vachana. In dvivachana bahuvachana, you have numagama, so it becomes atistrini, atistrini. Atistrinam, atistrinaha. Everywhere there is numagama. So there is no question of iyam. There is no option for iyam. So atistrina, atistri a, atistite numagame, atistrina. Atistri a, atistite numagame, atistrine. So one form will be completely like an apumsakalinga shabda where there is no iyam at all. Okay. So there is no iyam because there is, it is always overruled by numagama. Nye pravritau ajadau vakshyamana pumbadbhavat pakshe pragvat rupam. And I also said from tritiya, not just nye pravritau, in from tritiya, all napumsakalinga, I mean not all, if a word is in both napumsakalinga and pullinga, it will have two forms. One like the napumsakalinga form and the other like a pullinga form. This is true for all words in napumsakalinga. From tritiya, you will have two forms. One will be like a pullinga form and the other will be like an apumsakalinga form. So now if you take this atistri, you will have one form like the one which we just studied. Hari shabdavat ekam rupam bhavati, or rather the pullinga atistri shabdavat ekam rupam, the other with numagama. In the first two, prathama vibhaktav, dvitiya vibhaktav, there is no yang adesha, it will be just like any ikaranta napumsakalinga. You have vari, varini, varini. That is the standard word in napumsakalinga. So you have atistri, atistrini, atistrini. Vari, varini, varini. Again you have atistri, atistrini, atistrini. Varina, varibhyam, varibhihi. Atistrina, atistribhyam, atistribhihi, etc. From tritiya onwards, there is an optional form like pullinga form. So you will have atistraye, atistrine, atistrehe, atistrinaha, etc. Atistrehe, atistrinaha. Shashti vibhaktavapi, atistrehe, atistrinaha. Shashti dvivachane, atistriyoho. Kumbadbhava pakshe, when it is like a pullinga form, you have atistriyos. Iyangadeshe, atistriyos, atistriyoho. Napumsakalinga pakshe, when the rupa is like napumsakalinga, there is numagama, it becomes atistrinoho. So for napumsakalinga, always yang is overruled by num. So in actual napumsaka forms, you will never hear the yang adesha. But when it behaves like pullinga, you will hear the yang in os. Okay, only in os. That is when Trishabda is Upasarjana and is in Napumsakalinga. Okay. Let us stop it here. There is also a question, what will happen when it is in Strilinga, when it is Upasarjana and it is Strilinga again, which I think we should see tomorrow, because it would be rather confusing today. Any questions about today's class? There is a question by will classes be at this time all days? Yes, we have changed that time since about a couple of months. Every Monday and Tuesday, 5 a.m. is the class. 5 to 6. any questions? As I said, I could not make a presentation today due to some power problems. I will create a presentation for this class and Ravichandanji will upload it. So if you want to go through it, you can again listen to the recording and go through the class so that you will be clear. Next class, we will revise this and see what happens when Stri Shabda is Upasarchana and is in Stri Linga. ఏనాక్షర సమాం నాయ మధ్వమహేశ్వర కృష్ణం వ్యాకరణం ప్రోక్తం తస్మై పాణినియే నమః మత్స్యకారం వరచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చక్రాంతోస్మి విత్రయం విత్రయం నమస్కృత్య ఉదక్తి పరిహార్య వైయాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే.